एष रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रभाषकः ध्रुव भट्टराई। नवदलीय गठबन्धनस्य राष्ट्रपति निर्वाचन परिचालन संयन्त्रस्य गतदिने उपविष्टेन उपवेशेन स्वसम्पत्स्यमानस्य निर्वाचनस्य मतदान मतगणना प्रभृति कार्याणां कृते निर्वाचन प्रतिनिधि निर्धारणार्थं पूर्वकार्यं विधातुं निर्णीतं वर्तते। डाक्टर बाबुराम भट्टराई इत्यस्य नेतृत्वस्य नेपाल समाजवादी दलेन सह यो नेपाली कांग्रेस दलस्य संसदीय दलस्य कार्यालय उपविष्टेन उपवेशेन सम्प्रति राष्ट्रपति निर्वाचनस्यैव सम्बन्धी विमर्शनं केन्द्रीकृतम् एवं राष्ट्रपति निर्वाचनानन्तरमेव सर्वकाराय पूर्णता प्रदान प्रवृत्ति विषयेष् सहमति मन्दिष्टुं निर्णीतम् इति उपवेशस्य पश्चात् नेपाली कांग्रेस दलस्य उपसभापति पूर्णबहादुर खड्का अज्ञापयत्। एवमेव उपवेशानन्तरं संचारकर्मी सह संक्षेपेण भाषमाण जनता समाजवादी दलस्य नेता राजेन्द्र श्रेष्ठ अद्य पूर्वाह्नस्य 11 वादन पर्यन्तं गठबन्धने आबद्धा सर्वे सांसद काष्ठमण्डपम् आगन्तुम् उपवेशन निर्दिष्टा सन्तीति अज्ञापयत्। माओवादी धारस्य नेतृणाम् उपवेशन शान्ति प्रक्रियाया अवशिष्ट कार्याणां निर्णयनार्थम् आवश्यके विधिगताय संस्थागताय च व्यवस्थाय तत्कालं प्रयत्न विधातुं सर्वकार अभियाचितो वर्तते। शान्ति संविधाय परिवर्तनस्य च विरूद्धे विहितानां कथं विधानामपि गतिविधीनां प्रतिवादाय मतैक्यं धृतम्। विभिन्नेष् समयेष् राज्येन सह विहितानां सहमति संविधानं क्रियान्वयनं विधातव्यम् इत्यत्र प्रतिबद्धता चास्तीति उपवेशस्य पश्चात् नेतृभि प्रकाशितं विज्ञप्तौ ज्ञापितं वर्तते। बालवाटार वर्तिनी प्रधानमन्त्री निवासे गतदिने उपविष्टम् उपवेशम् अनु प्रकाशितां संयुक्त विज्ञप्तौ संक्रमणकालिका न्यायस्य सम्बन्धी विधेयमानाय चर्चा विषये गभीरेण ध्यानाकर्षं जातमिति उल्लिख्य शान्ति प्रक्रिया सह सम्पृक्तः विषयः विस्तृत शान्ति संविधाय मर्म भावना अनुरूपं व्यवस्थापनीया इत्यत्र दृढतास्थिति ज्ञापितं वर्तते। विज्ञप्तौ संक्रमणकालिका न्यायेन सम्बद्धान् विषयान् सत्यनिरूपण मेला योगस्य माध्यमेन अग्रे वर्धयितुं बलं दत्तमस्ति। उपवेशे नेकपा माओवादी केन्द्रस्य अध्यक्ष प्रधानमन्त्री च पुष्पकमल दाहाल प्रचण्डः नेपाल समाजवादी दलस्य अध्यक्ष डाक्टर बाबुराम भट्टराई नेकपा क्रान्तिकारी माओवादी दलस्य स्थायी समिति सदस्य सीपी गजुरेलः नेकपा दलस्य प्रवक्ता खड्ग बहादुर विश्वकर्मा अन्य नेतारश्च सहभागिन आसन्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति शान्ति प्रक्रियां निर्णयं प्रापितुं सर्वकार दत्तचित्तेन प्रवर्तितो वर्तते। धादिङ जनपदस्य गल्छी स्थाने ह्य प्रारब्धं सामुदायिक रेडियो प्रसारक संघस्य 2 दिवसीय राष्ट्रिय परामर्श सम्मेलनम् उद्घाटयन्ती मन्त्री शर्मा संसद वर्तमानाधिवेशनस्य माध्यमेनैव संक्रमणकालिक न्याय सम्बद्ध विधिं निर्माय शान्ति प्रक्रियाय अवशिष्ट कार्याणि निर्णयं प्रापयिष्यन्ते इत्यवोचत्। शान्ति प्रक्रियाया निष्कर्षस्य अप्रापणात् विभिन्ना चलखेला प्रारब्ध सन्तीति चर्चयन्ती संचार सूचना प्रविधि मन्त्री शर्मा द्वन्द्वकालिक न्यायिक प्रकरणानि अन्य न्यायिक प्रकरणानि न सन्तीत्यतः शान्ति संविधाय संक्रमणकालिक न्यायस्य अभ्यन्तरे स्थित्वा निष्कर्षे प्रापणीय नीति विचारम् अभिव्यनक। भिन्न प्रसंगे सर्वकारस्य प्रवक्ता च मन्त्री शर्मा सर्वकार प्रतिवेशी राष्ट्राभ्यां सहितै सर्वै राष्ट्रै सह सन्तुलितां परराष्ट्र नीतिम् अवलम्बितुं प्रतिबद्ध स्थिति स्पष्टीकृतवती। कतिपय सन्दर्भे दायित्वबाहि नेतृभि एव राष्ट्रसहित विपरीततया अभिव्यक्ति प्रदीयमाना भवतीति चर्चयन्ती मन्त्री शर्मा संचार माध्यमे एवं विदेशु विषयेष् ध्यानं प्रदेयं राष्ट्रहितं च प्राथमिकतां संस्थापनीयमिति प्रत्यपादयत्। राष्ट्रिय मानवाधिकार आयोगेन संक्रमणकालिक न्यायं शीघ्रं निष्कर्षं प्रापयितुं क्रियाशीला भवितुं सर्वकार सम्बद्धा सर्वै पक्षाश्च अनुरुद्धा सन्ति। संक्रमणकालिक न्यायस्य सम्बन्धी सर्वोच्च न्यायालयस्य आदेशस्य आयोगेन विगतकाले प्रदत्तानां परामर्शानाम् अन्तर्राष्ट्रिय मान्यतायाश्च अनुसारेण संक्रमणकालिक न्याय सम्बद्धम् अधिनियमं संशोधयितुं यथाशीघ्रम् आयोगं संघटय विषयममु शीघ्रं निष्कर्षे प्रापयितुं च आयोगेन अनुरुद्धमस्ति। आयोगस्य प्रवक्त्रा डाक्टर टीकाराम पोखरेलेन ह्य प्रकाशितं विज्ञप्तौ संक्रमणकालिक न्यायस्य विषये कतिपय दिनेभ्यो विभिन्न कोडेभ्य विमर्शनं विधीयमानमस्ति इत्यतः यथाशीघ्रं विषयमं निष्कर्षं प्रापितुं सर्वकार अभियाचितो वर्तते। अद्य त्रयोदशाधिक शततम अन्तर्राष्ट्रिय महिला दिवस नेपालेपि विविधै कार्यक्रमै सह समायोज्यमानो वर्तते। एतदवसरे विश्व महिलान्दोलनस्य प्रारम्भम् संस्मृत्य महिलानाम् हिताधिकारयोः एतासु विहितानाम् सर्वविधानाम् हिंसा विभेदोत्पीडनानाम् अन्तस्य च विषयो जागरण प्रवचनादि कार्य उपलक्ष्यस्मिन् राष्ट्रपति विद्यादेवी भण्डारी शुभकामना सन्देशम् प्रदाय महिला सशक्तिकरणस्य लैंगिक समानताश्च क्षेत्रीय नेपालेन अधिगता उपलब्धिः विश्व महिलान्दोलनाय विशिष्टा स्थिति निगदति। अन्तर्राष्ट्रिय महिला दिवसेन महिलानाम् विरूद्धे जायमानानि सर्वप्रकारकाणि हिंसा विभेदोत्पीडनानि समाजे विद्यमाना विकृत प्रथा परम्पराश्च समूलम् समाप्य समानतम् न्यायम् च सुनिश्चेतुम् सर्वेभ्य अतिरिक्तम् ऊर्जा उत्साह च प्राप्यति इति विश्वासेन राष्ट्रपतिना भण्डारिणा शुभकामना सन्देशे महिला सशक्तिकरणम् प्रतिनिधित्वम् सहभागिता च लैंगिक समानताया प्राप्ति प्रमुख माध्यमेष् रूपेण मन्तव्य इति बलम् दत्तमास्ते। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन प्रदत्ते शुभकामना सन्देशे महिलोद्यमशीलताय स्ववृत्त्युपार्जनस्य च विकासाय विहितानाम् प्रयासनम् विस्तारणम् आवश्यकमस्तीति उक्तम् वर्तते। प्रधानमन्त्री प्रचण्ड सन्देशे महिलानाम् सम्मानपूर्वकम् व्यवहारस्य संस्कृतिम् विकसय समानाधिकाराय राज्यस्य सर्वेष् अंगेष् समानुपातिक प्रतिनिधित्वेन सह अर्थपूर्ण नेतृत्वस्य स्थापनाय च अतिरिक्त प्रेरणा प्रदीयते इति विश्वासम् प्रकटय अवसरेऽस्मिन् सर्वाभ्यो महिलाभ्य शुभकामनाम् व्यनक्ति। सभामुखेन देवराज घिमिरे भिदेन प्रदत्ते शुभकामना सन्देशे जनान्दोलनेन सहितै विभिन्नै आन्दोलनै अभियानैश्च नेपाली महिलानाम् समावेशी नेतृत्वस्य अधिकार सुनिश्चितो विहित इति सुस्पष्टमस्तीति उल्लिखितम् वर्तते। एतदवसरे गण्डकी प्रदेशस्य प्रदेश प्रमुखेण पृथ्वीमान गुरूङ इत्यनेनापि शुभकामना सन्देशम् प्रकाश्य महिला पुरूषैर्विभेदस्य अन्ताय बलम् दत्तम् वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड निगदति सर्वेषाम् स्तराणाम् पक्षाणाम् क्षेत्राणाम् च संयुक्त प्रयासेनैव राष्ट्रिय दृष्टा समस्या समाधास्यन्ते। ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री प्रचण्डः आत्मना अर्थतन्त्रस्य क्षेत्रीय दृष्टाम् समस्याम् समाधातुम् प्रयास विधेयमानोऽस्ति एवं कतिचित् दिनानाम् अभ्यन्तरे एव नूतन विश्वासेन सह देश अनुकूल दिशि अग्रे वर्धिष्यति इति उदयरयत्। नैज क्षेत्रस्य प्रतिनिधिमूलक संस्थानाम् कोषागाराणाम् वित्तीय संस्थानाम् च प्रतिनिधिन् आहूय अर्थतन्त्रे सृष्टा समस्या समाधानाय विमृष्टमिति प्रधानमन्त्री प्रचण्ड अवदत्। प्रधानमन्त्री प्रचण्ड आर्थिक विकासाय व्यापार हानि न्यूनीकरणाय च ऊर्जा निर्यात एव उपयुक्त माध्यम भवतीति प्रत्यपादयत्। ऊर्जा क्षेत्रस्य विकासाय विस्ताराय च सर्वकार नैज क्षेत्रेण सह मिलित्वा कार्यम् करोति एवं सर्वविधा समस्या समाधास्यन्ति इति प्रधानमन्त्री प्रचण्ड प्रतिबद्धताम् व्यक्तवान्। प्रधानमन्त्री प्रचण्ड ऊर्जा क्षेत्रे विहितेन विकासेन हरितोर्जसी महत्वपूर्ण कार्यस्य सम्पादनाय उपयुक्त अवसर सम्प्राप्तोस्तीति भाषमाण नेपालोऽपि क्रमशः तत्र अग्रेसरो जायमान स्थिति अवोचत्। डिजल पेट्रोल आदि धनानाम् यानानि त्यक्त हाइड्रोजन वायु द्रव्यरूप अथ सञ्चल्यमानानि यानानि प्रयोक्तुम् आत्मनपूर्वकार्यम् अस्तीति च प्रधानमन्त्री प्रचण्ड असूचयत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड कथयति क्रीडा क्षेत्रस्य विकास सर्वकारस्य प्राथमिकतायाम् वर्तते। काष्ठमण्डपस्य गोकर्णस्थाने एसियन एथलेटिक्स एसोसिएशन संघेन नेपाल एथलेटिक्स संघेन च आयोजितायम् षोडश एसियन क्रस कन्ट्री च्याम्पियनशीप स्पर्धायाम् प्रधानमन्त्री प्रचण्ड सर्वकार क्रीडा क्षेत्रेण सह सम्बद्धानाम् सम्पूर्ण नीतिनाम् प्रभावकारिणे क्रियान्वयनाय प्रतिबद्धोस्तीति अवोचत्। सभामुख देवराज घिमिरे कथयति संविधान सभाता निर्मितेन नेपाल संविधानेन विहितायम् व्यवस्थायम् वर्तमानस्य प्रावधानस्य कारणेन राज्यस्य प्रमुखाङ्गेषु महिलानाम् सुनिश्चितता जायमाना अस्ति। सामुदायिक वनोपभोक्तृ महासंघ नेपालेन त्रयोदशाधिक शततमस्य अन्तर्राष्ट्रिय श्रमिक महिला दिवसस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे सभामुख घिमिरे सांविधानिक प्रावधानेन न्यूनतपि प्रतिशतम् त्रयस्त्रिंशत महिलानाम् अनिवार्य सहभागिताय विधेयक निर्माण स्तरम् यावत् प्राप्तम् इति अवोचत्। इति समाचारः।